एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। निर्वाचन आयोगेन प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य सन्दर्भे राजनीतिक दलानां प्रत्याशिनां च कृते स्वतन्त्रतापूर्वकं निर्वाधरूपेण प्रचार प्रसारौ कर्तुं कारयितुं च निर्दिष्टम् वर्तते। आयोगेन प्रत्याशी भिसा निर्वाचने संलग्नानां कर्मचारिणाम् अनुगमनकर्तृणां पर्यवेक्षकाणां सकल मतदातृणां च आवश्यक सुरक्षाया प्रत्याभूत्या सह स्वच्छे स्वतन्त्रे निष्पक्षे भयरहिते च वातावरणे निर्वाचने सहभागितायै उपयुक्त वातावरणं निर्मातुं सप्तसप्ततिरेव जनपद प्रशासन कार्यालयाः नेपाल सर्वकारीय गृह मन्त्रालयस्य माध्यमेन निर्दिष्टाः सन्तीति आयोगस्य सहायक प्रवक्त्रा कमल भट्टराई इत्यनेन ह्य प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। विभिन्नेषु जनपदेषु प्रत्याशिनां निर्वाधरूपेण प्रचार प्रसारयोः कार्येषु अवरोधो विहिता इत्यस्मिन् सम्बन्धे विभिन्नैः संचार माध्यमैः प्रकाशितान् समाचारान् सामाजिक सञ्जालस्य माध्यमेन सार्वजनिक भूतान् विषयांश प्रति निर्वाचन आयोगस्य गभीरं ध्यानाकर्षणं जातम् इति ज्ञापयता आयोगेन निर्देशनं प्रदत्तमिति विज्ञप्तौ उल्लिखितम् अस्ति। विज्ञप्तौ निर्वाचने प्रत्याशितां प्रस्तुवत्यै प्रत्येकं व्यक्त्यै प्रतिस्पर्धायाः समानावसरो भवतीति लोकतान्त्रिक विश्वासस्य संस्थापनम् आयोगस्य सांविधानिकं दायित्वमस्तीति उल्लिखितं वर्तते। निर्वाचन आयोगेन मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनाय अन्तिम मतदातृनामावल्यां समाविष्ट नामभ्यः मतदातृभ्यः आयोगेन प्रदत्तेन मतदातृ परिचय पत्रेण सहैव स्वस्य परिचायक अन्याधिकारिक परिचय पत्राणाम् आधारेणापि मतदानाय अनुमतिं प्रदातुं निर्णीतं वर्तते। आयोगेन मतदातृ परिचय पत्रेण सहैव नेपाली नागरिकता प्रमाणपत्रस्य राष्ट्रिय परिचय पत्रस्य पारपत्रस्य भूस्वामित्व प्रमाणपत्रस्य यान सञ्चालनानुमति पत्रस्य वा मूल प्रमाणपत्रस्य आधारेण अन्तिम मतदातृ नामावल्यां नामानि दृष्ट्वा प्रमाणीकृत्य मतदानस्य व्यवस्थायै सम्बद्ध निर्वाचनाधिकृतेभ्य निर्देशनं प्रदातुं निर्णीतमस्ति। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भाषते कर्णाली क्षेत्रस्य विकास प्राथमिकतायाम् समाविष्टो वर्तते। जुम्ला जनपदस्य खलंगा स्थाने ह्य आयोजितां सभां सम्बोधयन् अध्यक्ष प्रचण्ड अवोचत् कर्णाली क्षेत्रस्य विकासस्य विषय सत्ता गठबन्धनस्य उपवेशेषु अपि विमृश्यमानस्थिति हेतोः आगामी दिनेषु एतस्मिन् विषये अतिरिक्तं बलं दास्यते। अध्यक्ष प्रचण्ड संविधानस्य रक्षायै विकासस्य अपरचरणस्य प्रारभणाय च निर्वाचनानन्तरं वर्तमान गठबन्धनस्यैव सर्वकारः संघटयिष्यते इति न्यश्चिनोत। असौ अगदत् जुम्ला जनपदे उत्पादितं मार्सी नामधेयं तण्डुलम् अन्तर्राष्ट्रियापणं यावत् प्रापयितुं आवश्यक सहयोगो विधीयते। नेपाली कांग्रेस दलस्य उपसभापति पूर्णबहादुर खड्का अब्रवीत् कर्णाली क्षेत्रस्य विकासाय वृत्त्युपार्जन सर्जनाय च संघे कर्णाली प्रदेशे च सत्ता गठबन्धनस्य सर्वकारः निर्मास्यते। गतदिने एव माओवादी दलाध्यक्ष प्रचण्ड कांग्रेस दलस्य उपसभापति खड्गा च कालीकोट हुम्ला जनपदयोः आयोजिता नैर्वाचनिकी सभाश्च समबोधयताम्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली विपन्नतायाः न्यूनीकरणाय सहकारी संस्थाः ग्रामीण क्षेत्रे ध्यानं प्रदातुम् अनुरुणद्धि। असौ सहकारी संस्थाभिः स्वस्य सेवां ग्रामीण क्षेत्रेषु केन्द्रीकृत्य आर्थिक गतिविधिः ग्रामीण स्तरं यावद् प्रापणीयः इत्यवोचत्। झापा जनपदस्य दमकस्थाने ह्यः सहकारी कर्मिभिः सह विहितायाम् अन्तर्क्रियायाम् अध्यक्ष ओली अवोचत् विकसित देश निर्माणाय स्थिर विकासस्य लक्ष्य अधिगते सत्येव विपन्नतातः मुक्तिः सम्भवति। अध्यक्ष ओली त्रिंशदुत्तर द्विसहस्रतम ख्रीष्टवर्षस्य अभ्यन्तरे सप्तदश लक्ष्याणि ऊनसप्तत्यधिक शतम् सहायक लक्ष्याणि च अधिगत्य देशेन विकसित राष्ट्रेण भवितव्यमिति विचारं व्यक्तवान्। गृहमन्त्री बालकृष्ण खाँड गदती नेत्र विक्रमचन्द नेतृत्वस्य नेकपा दलं मूलधारस्य राजनीतौ आनेतुं सर्वकारेण नेकपा दलेन सह नैरन्तरेण विमृश्यमानमस्ति। नेकपा एकीकृत समाजवादी दलस्य रूपन्देही जनपदस्य तृतीय निर्वाचन क्षेत्रस्य निर्वाचन परिचालन समित्या ह्य भैरवा स्थाने आयोजिते अग्रणी कार्यकर्ता मेलन कार्यक्रमे गृहमन्त्री खाँड शान्तिपूर्ण मतदाने सहभागितायै सर्वकारस्य एतत् समूहस्य च मध्ये द्विपक्षीय वार्ता सम्भूत्येति ज्ञापितवान। गृहमन्त्री खाँड नेकपा दलस्य प्रवक्ता खड्गबहादुर विश्वकर्मणा सह द्वयात् पूर्वम भैरवास्थाने वीरतायम वार्तायम कारावासे स्थितानम बन्दी जनानम प्रक्रियाम प्रपूर्य मोचनस्य न्यायिक प्रकरण प्रत्यावर्तनादिनाञ्च विषयेषु विमृष्टमिति अज्ञापयत। गृहमन्त्री खाँड नेकपा दलस्य नेतृ कार्यकर्तृभिः मतदाने सहभागितायम ईप्सितायम सत्यम प्रशासनेन एते जनाः न निगृह्यन्ते अन्य नागरिकैः समानं तेभ्यः मतदानस्य अधिकारावसरश्च प्रदास्यते इति प्रस्तावः प्रस्तुतः इति सूचितवान्। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया जनसंचार माध्यमैः अशेष नागरिकाणां निर्वाचन आयोगस्य च मध्ये सम्बन्ध संस्थापनत्वेन भूमिकां निर्वोढुं बलं ददाति। रेडियो नेपाले आयोजितं प्रतिनिधि सभाया प्रदेश सभानां च निर्वाचनं समाचार संग्रहणं चेति विषयकं दिवसत्रयव्यापी प्रशिक्षणं पूर्वेद्यो शुभारभमाणः प्रमुखायुक्तः थपलिया सकल नागरिकान् राजनीतिक दलानि प्रत्याशिनश्च यथार्थ सूचनां सम्प्रेष्य संचार माध्यमैः स्वस्य भूमिका दायित्व वाहिनी विधेयति अवदत्। प्रमुखायुक्तः थपलिया सम्पत्स्यमानं निर्वाचनं राष्ट्रियकतां सबलीकरिष्यति इति चर्चयन् अवासत। आचार संहितां परिपाल्य दलैः प्रत्याशिभिश्च शोभनः राजनीतिक संस्कारः प्रवर्धमानो वर्तते। असौ समाचाराणां लेखने तथ्यमादृत्य सर्वेभ्य प्रत्याशिभ्य समानस्थानं प्रदेयमिति प्रतिपादयन् प्रावोचत् विविधतायाः एकतायाम् आवन्दन कार्यम् संचार माध्यमानां भवति। प्रमुखायुक्त थपलिया रेडियो नेपालः विश्वसनीय आधिकारिकश्च संचार माध्यमोस्थिति हेतो अनेन इतोपि अधिकं व्यावसायिक कौशलं प्रदर्श्य निर्वाचनस्य गतिविधिन् स्पष्ट रूपेण नागरिकाणां पुरतो नेतुं बलं प्रादात्। प्रमुखायुक्त थपलिया रेडियो नेपालः सर्वेषां रेडियो प्रसारणानां पाठशालास्थिति चर्चयन् अवदत् समाचारः समावेशिनः लैंगिक मैत्रीयुताः प्राप्तिपूर्णाश्च विधेयः। रेडियो प्रसार सेवा विकास समितेः अध्यक्ष संचार सूचना प्रविधि मन्त्रालयस्य सचिवश्च डाक्टर वैकुण्ठ अरियालः अब्रवीत् संचारकर्मिणः निर्वाचन आयोगस्य दूताः सन्ति इति हेतोः आचार संहितायाः पालनस्य पालनाभिप्रेरणस्य च दायित्वं निरूह्य समाचाराणां सम्प्रेषणे ध्यानं प्रदातव्यम्। रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी रेडियो नेपालेन निर्वाचन आचार संहितां पूर्णतः परिपाल्य नागरिकेषु तथ्य सूचना सम्प्रेष्यमाणा स्थिति अज्ञापयत। यः प्रारब्धे एतस्मिन् प्रशिक्षणे रेडियो नेपालस्य आराष्टं विद्यमानः संवाददातारः भौतिकरूपेण श्रव्यदृश्य संयोजन प्रविधिनां च सहभागिनो वर्तन्ते। एतत्पूर्वं ह्य एव प्रमुख निर्वाचनायुक्तेन दिनेश कुमार थपलियाभिदेन नैज क्षेत्रस्य उद्योगी व्यवसायिनः आगामिनः मार्चस्य मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनाय अनुकूलं वातावरणं स्रष्टुम् अनुरुद्धाः सन्ति। नैज क्षेत्रस्य नेतृत्वदायी संघटनानां व्यक्तिनां च सहभागितायां नैज क्षेत्रेण सह अन्तर्क्रिया विषयके ह्य आयोगे आयोजिते कार्यक्रमे प्रमुखायुक्ता थपलिया व्यवसायिक सामाजिकोत्तर दायित्वस्य अन्तर्गतस्य स्वस्य सूचना सम्प्रेषण संयन्त्रस्य माध्यमेन आयोगस्य सूचना सन्देशं प्रवाहयितुम् अन्वरुणत।